अथ षष्ठ स्कंध अथ द्वादशोऽध्याय ऋषिरुवाच एवं जिहासु निर्देयमाजौ मृतुम् वरम् विजयान् मन्यमानः शूलम् प्रगृह्याभ्यपतत् सुरेन्द्रम् यथा महापुरुषम् कैटभप्सु ततो जुगान्तर्निकठोर जिह्वमाविद्ध शूलम् तरसा सुरेन्द्र क्षिप्ता महेन्द्राय विनद्य वीरो हतोऽसि पापेति विदुषा जगाद खयापत तद्विचलत गृहोल्कुवर निरीक्ष दुष्प्रेक्ष मजात विक्ल वज्रण वज्री शत पर्वणाक्षिण भुजन तस्वरगराज भोगम छिनैक बाहु परिघेण वृत्र सदर्थ आसद गृहीत वज्रम हनौ तता मथा मरेभम वज्रम च हस्तान्यपतन मघोन वृत्रस्य कर्माति महाद्भुतम् तत्सुरासुराचरण सिद्ध संघा अपूजयंस्तत्पुरुहूत संकटम् निरीक्ष हाहेति विचुकृशुभ्युषम् इन्द्रोन वज्रम् जगृहे विलज्जितश्चितम् स्वहस्तादरिसन्निधौ पुनः तमाह वृत्रो हर आत्मवज्रो जहि स्वशत्रुम् न विषाद कालः युजत्सताम् कुत्रचिदाततायिनाम् जय सदैकतृणमयि परात्मनाम् विनयकमुत्पत्तिलयस्थितीश्वरम् सर्वज्ञमाद्यम् पुरुषम् सनातनम् लोकाशपाला जस्य मे स्वसन्ति विरुषा वसे द्विजायुवसि च बद्धा स्वकाल ह्य कारणम् ओजः सहो बलम् प्राणममृतम् मृतमेव च तमज्ञाय च न हेतुमात्मानम् मन्यते जडम् यथा दारुमयी नारी यथा यंत्रमयो मृग एवं भूतानि भगवान ईशतंत्राणि विद्धि भो पुरुष प्रकृतिर्व्यक्तमात्मा भूतिर्याशय शक्नुवन्त्यस्य सर्गादौ न विना जदनुग्रह अविद्वान् एवम् आत्मानं मन्यते अनीशम् ईश्वरम् भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् आयुः श्रीकीर्तिरैश्वर्यम् आशिषः पुरुषस्य यः भवन्त्येव हि तत्काले यथा निच्छो निपर्ययः तस्मात् कीर्तिर्यस्व जयापजयोदपि समः स्यात् सुखदुःखाभ्यां मृत्युर्जीवितयस्तथा सत्त्वम् रजस्तमैति प्रकृतेनात्मनो गुणः तत्र साक्षणमात्मानम् यो वेद न सम्बध्यते पश्यमाम् निर्जितम् शक्र वृक्षणाय भोजम् मृदे घटमानम् यथा शक्ति तो प्राणचिहित्सया प्राणग्रहोऽयम् समरै स्वक्षो वाहनाशन अत्र न गायते मुस्य जयमुस्य पराजयः शेषु उवाच इन्द्रो वृत्रवचः श्रुत्वा गतालीकम् पूजयत् गृहीत वज्रः प्रहसंस्तमाः गत विस्मयः इन्द्र उवाच अहो दानव सिद्धोऽसि जसते मतिरीदृशि भक्तः सर्वात्मनात्मानम् सुहृदम् जगदीश्वरम् भवान् तादृशीम् मायाम् वै वैष्णवीम् जनमोहिनीम् जद्विहायासुरम् भावम् महापुरुषताम् गतः खल्विदम् महदाश्चर्य यद्रजः प्रकृतेस्तव वासुदेवे भगवति सत्त्वात्मने दृढामति यस्य भक्तिर्भगवती हरौ निः श्रेयसेश्वरे विक्रीडतो मृताम्बुदौ किं क्षुद्रैः खातकोदकैः शेषुक उवाच इति ब्रुवाणमन्यम् धर्मजिज्ञासयामि त्वद्विधाते महावीर्जौ इन्द्रवृत्रौ युधाम्पति आविध्य परिघम् वृत्रः कार्ष्णाय स्मरिन्दम् इन्द्राय प्राणोद्घोरम् वामहस्तेन मारिष शत्रुवृत्रस्य परिघम् करम् च कर्भभूमम् चिच्छेद युगपद्देव वज्रेण शतपर्वणा दुर्भ्याम् उत्कृतमूलाभ्याम् बभौ रक्तसवसुर छिन्न पक्षो यथा गोत्र खाद्भ्रष्टो वज्रणाहतः महाप्राणो महावीर्जो महाशर्प इव दिवम् कृत्वा धराम् हनुम् भूमौ दैत्यो दिव्युत्तराम् हनु नभो गम्भीरवक्त्रे निहल्वन् जिह्वया द्रष्टाभि कालकल्पाभिग्रसन्निव जगत्त्रयम् अतिमात्र महाकाय आक्षिपंस्तर्षागिरिम् गिरीराट्पादचारिव पद्भ्याम् निर्जरयन् महीम् जग्रास्समासाद्य वज्रणम् सहवाहनम् वृत्रग्रस्तम् तमालक्ष्य स्वप्रजापतेः सुराहा कष्टमिति निर्मिणाश्चिकृषु स महर्षय निगृणप्यसुरेन्द्रेण न ममारोदरम् गतः महापुरुष सन्नद्ध योगमया बलेन च भित्त्वा वज्रेण तत्कक्षीम् निष्क्रम्य बलभिद्युः उच्चकर्तशिरः सत् और गिरीश सिंह निवोजस। वज्रस्त तत्कन धर्माशु वेग कृतन कृतन समंत परिवर्तमान न्यपातवद अहर गणेन योजित सामान्य वार्ता हे तथा चखे दुर्भयो विने दुर्गंधर सिद्धा समहसी संघ वात्रघ्न लिंग स्तमिष्टवाना मंत्र मुदा कुष्मैरभ्युवर्षम वृत्रस देह निष्क्रांतमात्म ज्योतिरिंदनो पश्यताम सर्वलोकानाम अलोकम समुपद्यत। इति श्रीमद्भागवते महापुराणे परमहंसम संहिताम संस्कृत संस्कृत स्कंदे वृत्रबधो नाम द्वादशोऽध्यायः।